विपत्तौ किं विषादेन सम्पत्तौ हर्षणेन किं भवितव्य भवत्येव कर्मणामीध्यशी गतिः।
धन्यवादः। पदच्छेदमपि पठति वा? पठतु पदच्छेदम्।
विपद इस् मिस्फार्चून्।
उत्तम।
किम् इस् वाट्, सो विषाद सोरो, संपत् इस् प्रास्परस्, हर्ष हेपिनेस्, भवितव्यं मस्ट् हेपन्। ओके,
पठतु एव।
भवति एव भवत्येव इस् विल् इनेविटेबल् हेपन्। कर्मण ईद्यशी,
क्षम्यतां, कर्मन् इस् एक्शन्,
कर्मन् इस् एक्शन्। ओके, ईद्यशी लैक् दिस्, ऐ एम् प्रोनौन्सिङ्ग् इट् रैट्? ईद्यशी,
ईदृशी,
ईदृशी। ओके, ईदृशी इस् लैक् दिस्, गति, गतिः इस् एण्ड् रिसल्ट्।
उत्तमं, धन्यवादः भगिनी, धन्यवादः। अस्तु, क्षम्यतां, तत्र हर्षः इति भवति, हर्षः। ओके, अस्तु, कः सुभाषितस्य अर्थं वदति?
अहं वदामि वा?
अस्तु, वदतु महोदय।
Whatever pleasures and pains we get is the result of the karmas which we have done. So it is inevitable, because once we have done the karma, we have to face the result. If you are not ready for the exam, then you have to face the result.
Yes, correct. So like Mahodaya said, we cannot complain, if there is a sorrow, then remember to that we will pass it. And if we feel happiness, then we have to cherish it, because all of these are happen as because of our karma, and whatever is happening, it's destined to happen, it's inevitable, it's all fate and everything. So just go with the flow, this too shall pass, type of feelings here. अस्तु, प्रश्नान् अस्ति वा? अस्तु, ओके, अग्रे सरामः। अद्यतनपाठ्यक्रमः प्रथमं वञ्चकः बकः इति पुनः पठामः। तत्र किं किं विभक्ति अस्ति, किं किं वचनमस्ति इति पुनः पश्यामः। गतसप्ताहे अहं दुःखिता आसीत्, तदर्थं सम्पूर्णतया न पठितवन्तः। तदनन्तरं विभक्तिवल्लरिः, विभक्तिः वल्लरी पठामः, पाठनं करिष्यामः। तदनन्तरं समयः अस्ति चेत् पुनः एका कथा करिष्यामः। अस्तु, इदानीं वञ्चकः बकः पुनः पठामः। अस्ति वा करपत्रम्? अस्ति वा? डस् एवन् हाव् द वञ्चकः बकः पेपर्? ओर् डु यू मीन् टु सेण्ड् इट् द लिङ्क्? सेण्ड् द लिङ्क् अगेन्। सो
नमो नमः कवि।
नमस्ते भगिनि, नमस्ते। अस्तु, वञ्चकः बकः इति पुनः पठामः। वञ्चकः बकः इत्युक्ते किम्?
Deceitful crane.
उत्तमम्, उत्तमं, चीटिङ्ग्, फ्राड्, क्रेन्, उत्तमम्। ओके, प्रथमं पेराग्राफ् कः पठति, कः वा का वा?
नूतन,
आं, नूतन जनाः पठतु, पठन्तु।
अहं पठामि.
अस्तु, पठतु भगिनि.
कुत्रचित् अरण्यप्रदेशे एकः सरोवरः आसीत्. तत्र बहवः जलचराः आसन्. कश्चन बकः अपि तत्र बहुकालः पश्यति स्म. It's echoing.
Let's see who is not on mute.
Kalantare saha bakaha.
Dhanyavadaha.
Kalantare saha bakaha vruddha abhavat. Vardhakya karanat saha matsyan gruhitum api asamarthaha abhavat. Idanim kathamahara sampadaniyaha iti chintayan. सः एकम् उपायम् अन्विष्टवान्. सरोवरस्य तीरे स्थित्वा अश्रुणि मुञ्चन् सः रोदनम् आरब्धवान्.
धन्यवादः भगिनि. अस्तु, प्रथमं कुत्रचित् अरण्यप्रदेशे. अरण्यप्रदेशे विभक्ति किम्? सप्तमी. सप्तमी. अरण्यप्रदेशे इत्युक्ते किम्?
सप्तमी विभक्ति.
अर्थम्? अर्थं किम्? इन् अ फारेस्ट् लैण्ड्. उत्तमम्. एकः सरोवरः आसीत्. उत्तमं. देर् वास् अ पाण्ड्. आसीत् भूतकालः. कालः किम् इति? भूतकालः. अस्ति, आसीत्. उत्तमं. वचनं किम्? आसीत् एकवचनम्. तत्र बहवः जलचराः आसन्. अस्तु, बहवः इत्युक्ते किं? बहवः many jalachara
aquatic animals.
Water beings. Uttamam. Asan. Asan itukte kim?
Ever.
Bhutakala.
Bahuvachanam. Bhutakalam.
Uttamam. Bhutakalah bahuvachanam. Asit. Asan. Astu. कश्चन बकः अपि तत्र बहुकालतः वसति स्म. बकः इत्युक्ते किम्?
एकवचनम्.
उत्तमम्. अपि
आल्सो.
आल्सो. ओके. किञ्चित् कठिनमस्ति. बहुकालतः विभक्ति जानाति वा? बहुकालतः. पञ्चमी. पञ्चमी विभक्ति. पञ्चमी. अस्तु. फोर् ए लाङ्ग् टैम्. उत्तमं. वसति स्म. ओके. उत्तमं. कालान्तरे सः बकः वृद्धः अभवत्.
In time, the grain became old.
Uttamam, bhagini. Uttamam. Okay. Abhavat, kalah kim?
Past tense.
Past tense. Bhutakala.
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 Uttamam. Vardhakya karanatah. Ittipte kim?
Due to old age.
Uttamam. Vibhakti janati va?
Panchami vibhakti.
पञ्चदिनत्र विभक्ति. सः मत्स्यान् गृहीतुम् अपि असमर्थः अभवत्. उत्तमं.
मत्स्यान्
बहुवचनं. द्वितीय.
उत्तमं. लिङ्गं किं?
पुल्लिङ्गं.
पुल्लिङ्गं. मत्स्यान् पुल्लिङ्गं बहुवचनं द्वितीयविभक्ति. उत्तमम् उत्तमं. गृहीतुं रूपं किं?
तुमुन्तरूपं.
तुमुनन्तम्. उत्तमम्. असम्मतः. उत्तमम्. ओके, इदानीं कथम् आहारः सम्पादनीयः इति चिन्तयन् चिन्तयन् जानाति वा रूपं?
शत्रन्तरूपं.
शत्रन्तरूपं. सः एकम् उपायम् अन्विष्टवान्. अन्विष्टवान् अन्विष्टवान् कालः किम्?
न
न
भूतकालः.
अन्विष्टवान् वर्तमानकालः जानाति वा?
अन्विष्टति. अन्विष्टामि.
ऐ थिङ्क् अन्वेषयति.
अन्वेषयति.
अन्वेषयति. उत्तमम्. ओके, सरोवरस्य विभक्ति किम्?
षष्टिविभक्ति.
उत्तमं. सरोवर. सरोवरस्य इत्युक्ते अर्थं किम्? उत्तमं. तीरे? विभक्ति किम्?
सप्तमी.
ऑन द बैंक. स्थित्वा. स्थित्वा रूपं किम्? त्वान्तरूपम्. उत्तमम्. अश्रूणि वचनं किम्?
बहुवचनम्.
बहुवचनम्. उत्तमं. मुञ्चन् मुञ्चन् रूपं किम्? सः रोदनम् आरब्धवान्. आरब्धवान्
भूतकालः.
उत्तमं. वर्तमानकालः किम्? आरभ्यति. उत्तमम्. ओके ओके, अस्तु. प्रश्नः अस्ति वा? अवगच्छति खलु. अस्तु. ओके, द्वितीयं पेराग्राफ्. आम् आम् वदतु भगिनी. इट्स् लिटल् बिट् ऐ केन्ट् हियर् यु.
मुञ्चन् किम् अर्थं?
लेटिङ्ग् फ्री.
शेड् टियर्. अश्रूणि मुञ्चन्. ऐ थिङ्क् इट् इस् शेडिङ्ग् द टियर्स्.
उत्तमम्. ओके, अस्तु. द्वितीयं, हू हास् रैट् दीस् टु सेण्टेन्सेस्? वाक्यं वयं कः
पठामः?
शान्ति भगिनी वा?
या,
अस्तु, पठतु भगिनी.
तदा कश्चन कर्कटः तस्य समीपम् आगत्य पृष्टवान् मामा, किमर्थं भवान् रोदनं करोति इति. तदा बकः
तदेव पर्याप्तम्. अस्तु, पदच्छेदं करोति वा किञ्चित्? विभक्ति किं, वचनं किं वदति वा?
ओके, ऐ शाल् ट्रै. प्रयत्नं करोमि. देन् तदा देन् कश्चन कर्कटः. कश्चन इस् सम् टर्टल्.
क्रब्.
क्रब्.
तस्य समीपं, नियर् हिम्.
एकवचनं. कर्कटकः.
कर्कटः एकवचनं. तस्य समीपं. तस्य समीपं. तस्य इस् षष्टिविभक्ति. समीपम् इस् नियर्. आगत्य पृष्टवान्.
यवन्तरूपं.
न, Amira Mode, kinchit
patience, okay. Agreed. Amitam.
I don't mind.
Oh, so other
Agatya Prishtavan. Yabantarubam Prishtavan is he asked past tense, that is the Bhutakalaha. Asked Prishtavan. Ekavachanam Bhutakalaha. Mama. Uncle. Kimartam Bhavan Rodanam Karoti. Why are you crying? So Kimartam is why. Bhavan are you? Rodanam is crying. Ekavachanam. Karoti is are you doing? It is all Vartamana Kala.
What is Kashtana?
Kashtana is some crab, some random crab.
Shall I proceed to the next paragraph?
Mama, Vibhakti Janativa.
Sambodhana.
Sambodhana.
Pradhama Vibhakti.
Ashtami Vibhakti.
Sambodhana Pradhama Vibhakti.
No.
Prathama Vibhakti na. Sambodhana eva vibhakti asti.
Oh.
That is Ashtami, no?
No.
Sure. Yes, it's the eighth one, but we don't call it the eighth
one. They generally use the words like O and all that, right?
Yes, correct. Tadeva, Uttama.
And okay. Rodanam would be Dvitiya Vibhakti, right?
Rodanam is a verb. Does it have a Vibhakti?
Means what karoti? Rodanam karoti, right? So, I don't know.
It's not a noun, right? It's a verb. Does it have a vibhakti?
In Rodhana form, it is a noun.
It's a noun.
Dvitiya Vibhakti.
Dvitiya
Vibhakti.
Bhagini, can you hear me now?
Shrinomi, I can hear you.
Thank you.
Uttamam. Shanti Bhagini Patativa.
Tadabhagaha Uktavan. अद्य दैवज्ञमुखतः अहम् एकां दुर्वार्तां श्रुतवान् इतः परं द्वादशवर्षपर्यन्तम् अतः अनावृष्टिः भविष्यति. Can you take it?
Please keep on mute. कृपया म्यूट् मध्ये स्थापयतु.
इतः परं द्वादशवर्षपर्यन्तम् अत्र अनावृष्टिः भविष्यति इति. अस्माकं सरोवरे किञ्चिदेव जलम् अस्ति, शीघ्रमेव तदापि शुष्कं भविष्यति. तदा मम तदपि शुष्कं भविष्यति. तदा मम बन्धवाः भवन्तः सर्वे अपि मृताः भविष्यन्ति किल इति मम अतीव दुःखम् इति.
बहु उत्तमं भगिनि, धन्यवादः. अस्तु, इदानीं नूतनजनाः कः पदच्छेदं करोति? वाक्यद्वयमेव अर्थं पदच्छेदं वचनं विभक्ति वदतु. कः करोति? ओके, सो वट् ऐ सेड् वास् जस्ट् फोर् टु लैन्स् यु हेव् टु से द विभक्ति वचनम् एण्ड् द मीनिङ्ग्. हू वुड् लैक् टु ट्रै? कः प्रयत्नं करोति?
अहं करोमि. तदा बकः एकवचनं प्रथमविभक्ति भूतकालः अद्य दैवज्ञमुखतः अद्य इस् टुडे नौ
अद्य
अद्य टुडे ऐव् हर्ड् दैवमुखतः दैवज्ञमुखतः मीनिङ्ग् ऐ हेव् हर्ड् फ्रोम् somebody who knows daiva
fortune teller
yes mukhata is panchami vibhakti aham ekvachanam prathama vibhakti that is me ekam durvartam ekam is dvitiya vibhakti and that means one durvartam that is also dvitiya vibhakti and that is bad news shrutavan he has heard and that is past tense itah that's avyay param prathama vibhakti as dvitiya vibhakti meaning param after dvadasha varsha paryantam that is the dvitiya vibhakti 12 years up to 12 years atra anavrishti hi bhavishyati anavrishti means there is no rain
drought
there will be a drought there will be no rain or there will be a drought bhavishyati will happen bhavishyati is ekvachan pratham purush iti that's also an avyay asmakam our sarovare asmakam is dvitiya vibhakti ekvachan our sarovare
asmakam dvitiya vibhakti na
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 asmakam kim bhavati
kah janati asmakam
shashti vibhakti
na
kah janati asmakam
our meaning is our vibhakti I am not sure
shashti bahuvachan
आम् षष्टि आम्
षष्टि
आम् अस्माकं षष्टि
अस्माकं
बहुवचनम् आम् उत्तमं
सरोवरे इन् आर् सरोवर् आर् द पाण्ड् कञ्चित् देवजलम् अस्ति
सप्तमी
सरोवरे विभक्ति किं भगिनि
That is Saptami Pratham, Ekvachan.
Uttama, Uttama.
Kinchit Deva Jalam Asti. Kinchit Sam Deva Jalam.
Only.
Jalam is... Na, kinchit plus Eva.
Eva, Kinchit Eva, Samasam.
Kinchit Eva. Sam Jalam Asti. There is only a small amount. Pardon?
आम् आं वदतु भगिनि क्षम्यतां
जलमस्ति इस् ओन्ली लिटल् अमौण्ट् आफ् वाटर्
उत्तम उत्तम धन्यवादः भगिनि तदेव पर्याप्तं पर्याप्तम् उत्तमम् अस्तु ओके तदनन्तरं वाक्यद्वयं कः करोति
एकं प्रश्नं वन् क्वश्चन्
आं वदतु महोदय
किञ्चित् इस्
फ्यू आर् लिटिल् लिटिल् इट् इस् अ समासं किञ्चित् प्लस् एव किञ्चित् एव
अवगच्छति वा महोदय ओके अस्तु
किञ्चित् एव इस् नाट् समास इट् इस् अ सन्धि इस्न्ट् इट्
किञ्चित्
एव
यस्
जस्व सन्धि ऐ थिङ्क्
Yes.
What is the difference between Sandhi and Samasam, Kavya Bhagini?
Sandhi is adding words. I'm not too sure about what Samasam is.
Samasa is the padas, two padas coming together.
Oh, right. Okay, so yeah. That's just adding two letters.
Yeah, two padas, and this is letters. Sandhi is letters, isn't it?
Samasam is not letters. Can you give an example of Samasam?
Okay, that's not the concept here, so we'll just skip that. Okay. Asta Mohan Madhya, Karoti Va? Would you like to say the Vachanam Vibhakti Artha Madhati Va for the rest of the program?
I'm a little weak in this. But I can give it a shot.
Prayatna karoti mohodaya.
Yes. Starts from shigrameva
tadapi.
Shigrameva tadapi shunkam bhavishyati.
Shrishkam.
Shrishkam. Shigram eva.
Mohan Madhya, mute Madhya asti. Bhavan.
Okay, Shigram Deva is... Shigram Deva.
Very soon.
Very soon. Yeah, but Vibhakti is what?
No, don't worry. There is no Vibhakti there.
Okay, Shigram Deva. Shigram Deva, quickly.
Yes.
Tadapi.
Tadapi.
Tadapi, yeah, tadapi. Afterwards, right?
That also.
Yeah, that also. Oh, tadapi is that also. Okay. That also. Shrunkam bhavishya. Shrushkam bhavishya. Yeah, shrushkam, I don't know.
Dry.
Huh?
Dry. Dry. Dry wet.
Yeah, dry wet. Okay. Shrunkam. Drain. Yeah, bhavishyati is future, right?
Happened.
Bhavishyat kalaha.
Yeah, bhavishyat kalaha. Okay. Tada mama bandavaha bhavantaha sarve api mrutaha bhavishyanti kila iti mama ativa dukkham iti. Tada is then mama my bandavaha is relatives.
Uttama.
Bhavantaha is became, right?
You all. Bhavantaha is you all.
Yeah, bhavantaha, you all. Okay, bhavantaha, sarve, you all, sarve is all of them. Api mrutaha. They all died. You all died. You will die.
Yes, you will.
Yeah, api mrutaha bhavishyanti kila iti mama ativa. Okay, so you all will die, and so he is very, I'm upset.
Uttamam. Asu bandavaha bhavantaha. Vachanam kim?
Bandavaha is bahuvachanam. Bhavantaha is also bahuvachanam.
Uttamam. Bhavantaha eka vachanam kim?
Bhavataha. Bhavantaha.
Bhavantaha. Uttamam.
Bandhuvaha.
Bandhavaha
and Bandhu. Bandhu is eka vachanam?
Bandhuna. Bandhavaha.
Good.
Uttam. Astu. Prashna asti va?
No.
Okay. Uttamam. Astu. Vakya dvayam. Kaha karoti?
Vakya dvayam?
Oh no. Yes. Who would like to do the next two sentences?
Okay.
I can read.
Agri vakya dvayam.
Kaha? Who just said?
I said agri vakya dvayam. The next two sentences.
Agrima vakya dvayam kaha karoti? Did someone volunteer?
Kavanam.
Oh, astu. Padatu, Narasimha Mahodaya. And everyone else, please keep on mute. I can hear myself. Kapaya mute mandi stapyatu.
Okay. So, Tat Shutva, this is the one, no? Tat Shutva Karkatakaha?
Am. Uttama.
Which para? Can you
yes, show yes, me? That's correct. Tat yes. Shutva Karkatakaha.
Yeah, Tat Shutva. वार्ताम् अन्यजलचरान् निवेदितवान् ते सर्वे बकस्य समीपम् आगतवन्तः
उत्तमं महोदय अर्थं वदतु अर्थं वचनं विभक्ति
माम् प्राणरक्षणार्थं कोऽपि उपायः अस्ति किम् तत् श्रुत्वा कर्कटकः
ओके अस्तु नमस्ते महोदय यु आर् कटिङ्ग् आफ्
Able to hear me?
No, your microphone is going in and out. Can you call through the phone? Try calling through the phone or try to download the app.
I have downloaded the app. I have logged into app.
Okay, try calling through the
try
app.
Try calling again, yeah. So somehow it is not, it is giving me a problem. Okay.
Okay, astu. Okay. Taran, okay, astu. Kaha patati? Who would like to read? Someone who hasn't read yet.
Aham pathami, Sukshma.
Astu, patatu bhagini.
Vinayena tam prishthavantava.
No, no, no. Tat shukva.
अन्यजलचरान् निवेदितवान् ते सर्वे अपि भीताः सन्तः बकस्य समीपम् आगतवन्तः
अस्तु नमस्ते महोदय केन् यू प्लीस् टेक् योर माइक्रोफोन ऑन म्यूट अस्तु ओके सुक्ष्म भगिनी अर्थं वदतु आफ्टर् वि द सेण्टेन्स् से द मीनिङ्ग्
तत् श्रुत्वा दस् हेविङ्ग् सेड् कर्कटकः द क्राब् तां वार्ताम् अन्यजलचरान् निवेदितवान् दस् सेयिङ्ग् he requested the other aquatic beings. Is that correct?
Yes, he told the other.
Okay. Te sarve api bhitaha santaha.
Astu bhagini, shrutva rupam kim?
Tat shrutva. Having said so, Shrutva, this would be Tvantam.
Am, Uttamam, Tvantam.
Tvantam. So, you want me to go each word by word in the first sentence?
Yes, yes, yes.
Karkatakaha is crab, that is Prathama Vibhakti. Tam Vartam. Vartam, is that Dvitiya Vibhakti?
Am, Uttamam.
Anya Jala Charan.
Bahuvachanam.
Yes, Bahuvachanam. Again, is it Dvitiya Vibhakti?
Am, Uttamam.
Niveditavan, he requested Bhutakala.
requested na conveyed.
Conveyed, okay. Nivedita-van is conveyed. Okay, thank you. Next, te sarve. Te is sarvanama, bahuvachanam. Sarve, all of them.
Sarve, chinta mastu, don't worry
okay.
about that.
Api bhitaha santaha. Api, api is... what I say afterwards, right?
Uttam.
Yeah. Bhitaha is afraid. Bhitaha is bhitaha. I don't know what that is.
Vachanam eva vadatu bhagini.
Vachan. Okay. Bahu vachana.
Uttam. It's an adjective. Uttam.
Adjective. Okay. Yeah. Santaha. It's a verb. Bakasya samipam agata vantaha. Bakasya is shashti vibhakti of bakaha. Samipam is location which is samipam. Is it tritiya vibhakti?
No. Samipam tadeva asti.
तदेव ओके बकस्य समीपम् आगतवन्तः दे आल् केम् क्लोस् टु द बकः आगतवन्तः भूतकालः
उत्तमम्
शुड् ऐ कण्टिन्यू
आम्
बहुवचनम्
ओके केन् यू गिव् द नेक्स्ट् सेण्टेन्स् टु
विनयेन तं पृष्टवन्तः आम् अस्माकं अस्माकं प्राणरक्षणार्थं कोऽपि उपायः अस्ति किम् इति सो विनयेन तं पृष्टवन्तः विनयेन वित् लाट्स् आफ् दे वर्ड् फार् इट् विनयेन दे रिक्वेस्टेड्
With humility.
Humility, right. With humility, tam means bahuvachanam. Prishtavantaha.
Tam bahuvachanam na.
Ekavachanam.
Tam is ekavachanam, okay.
Ekavachanam. Ekavachanam, vibhakti kim?
Vibhakti, then, the time.
तं विभक्ति जानाति सः जानाति द्वितीयविभक्ति
ओके द्वितीयविभक्ति ऑलराइट
उत्तमम्
पृष्टवन्तः इज भूतकालः
बहुवचनः
ओ इट इज बहु पृष्टवन्तः ओके बहुवचन माम् इस् सम्बोधन विभक्ति अस्माकं प्राणरक्षणार्थं कोऽपि उपाय अस्ति किम् अस्माकम् इस्
स्मरति वा षष्टि
अस्माकम् ओके षष्टि विभक्ति प्राणरक्षणार्थं फोर् प्राणरक्षणार्थं सो इस् दट् चतुर्थी विभक्ति
जस्ट् ओके यू केन् से चतुर्थी
ओके ओके कोऽपि उपायः कोऽपि एनी उपायः इस् प्रथमविभक्ति एकवचनम् अस्ति किम् इस् देर् इति दट्स् वाट् ही सेड्
उत्तमं सम्यक् धन्यवादः भगिनी
थेंक यू
बहु उत्तमम् अस्तु समयः कारणात् अहमेव पठामि वचनं विभक्ति तद् वदतु ओके तदा बकः उक्तवान् कालः किम्
भूतकालः
भूतकालः इतः किञ्चित् दूरे किञ्चित् प्लस् दूरे किञ्चित् दूरे किञ्चित् दूरे इत्युक्ते किम्
Slightly away. Slightly away from here.
Yes, a little far away.
Saptami Vibhakti.
Uttam, Saptami Vibhakti. Anyaha kashchana sarovaraha asti. Pratama Vibhakti asti. Tatra prabhutam. Prabhutam ityute kim?
Dvitiya Vibhakti.
प्रभूतम् इत्युक्ते किम्
लाट्
लाट् करेक्ट्
लाट्
जलम् अस्ति तत् कदापि शुष्कं न भविष्यति कदापि इत्युक्ते किम्
whenever never
never शुष्कम् इत्युक्ते किम्
dry
dry न भविष्यति भविष्यत्कालः यदि भवन्तः मम पृष्ठम् आरोहन्ति यदि इत्युक्ते किम् कुत्र अस्ति
यदि भवतः जस्ट् लिटिल् बिट् अप् फर्दर् फर्दर् अप् दट्स् इट् दट्स् इट् दट्स् इट्
भवन्तः भवन्तः वचनं किं
बहुवचनं
बहुवचनं
बहुवचनं विभक्ति किं
प्रथमाविभक्ति
प्रथमाविभक्ति एकवचने
भवान्
भवान् उत्तमं भवान् मम पृष्ठम् आरोहन्ति तर्हि यदि तर्हि अहं भवतः सर्वान् तत्र नयामि इति भवतः इत्युक्ते किम्
द्वितीय
ओके आं द्वितीय अस्ति ऐ डिडन्ट् गो ओवर् अस्तु भवतः द्वितीया विभक्ति क्षम्यतां षष्टि षष्टि क्षम्यताम्
नो ऐ थिङ्क् इट् इस् नाट् षष्टि
न भवतः बहुवचनं द्वितीया विभक्ति बहुवचनं द्वितीया विभक्ति सर्वान् द्वितीया विभक्ति बहुवचनं तत्र नयामि इति नयामि इत्युक्ते किं केरि उत्तमम् ओके तदा ते जलचराः महता उत्साहेन उत्साहेन विभक्ति किं
सप्तमी
न
तृतीया
विभक्ति एकमेव अहं शृणोमि सर्वे अपि वदन्तु कृपया ऐ एम् ओन्ली हियरिङ्ग् वन् पर्सन्
सो शाल् ऐ कीप् इट्
सो एवरीवन् प्लीज् टाक् ओके तं परितः स्थितवन्तः परितः इत्युक्ते किम्
अराउण्ड्
न सप्तमी न परितः जस्ट् अराउण्ड्
ओके
बकः तान् पृष्ठे आरोप्य ततः प्रस्थितवान् तान् विभक्ति किम्
द्वितीया
द्वितीया वचनं
बहुवचनं
बहुवचनम् उत्तमम् उत्तमम् आरोप्य रूपं किं
लेबन्तरूपम्
आं लेबन्तरूपम् आ इति अस्ति खलु तदर्थं लेबन्तरूपं ततः प्रस्थितवान् किञ्चित् दूरे एका शिला आसीत् शिला इत्युक्ते किं
स्टोन्
स्टोन्
रोक् स्टोन् किमपि तत्र तान् स्थापयित्वा सः सन्तोषेण विभक्ति किम्
सप्तमी
तृतीया विभक्ति
किमर्थं न भिन्नम् अस्ति, किमर्थं वै इस् द न डिफ्रेण्ट् फ्रम् उत्साहेन, वै द सन्तोषेण, वै डु यु हव् टु यूस् देट् न अट् द एण्ड्?
बिकास् इट् हेस् अ श
च अस्ति खलु, तदर्थं न इति अस्ति. उत्तमं, खादितवान्. एवमेव सः बहून् जलचरान् खादितवान्. जलचरान् विभक्ति किम्?
द्वितीया.
बहुवचनम्. उत्तमम्. एकस्मिन् दिने विभक्ति किम्?
सप्तमी.
अर्थं किम्?
इन् वन् डे.
कर्कटकः उक्तवान् माम अद्य मां नयति इति. मां विभक्ति किम्?
द्वितीया.
सम्बोधन माम न माम् अद्य माम् माम् एकवचनं किं? माम् एकवचनं. अहं माम्. उत्तमम्. अस्तु, अद्य कर्कटस्य मांसं खादामि इति. मांसम् इत्युक्ते किम्?
मीट्.
उत्तमं. कर्कटकस्य विभक्ति किम्? षष्टि विभक्ति. उत्तमम्. चिन्तयित्वा रूपं किम्? आं, त्वान्तरूपम्. अर्थं किम्?
थिङ्किङ्ग् सो.
बकः तं पृष्ठे. पृष्ठे विभक्ति किम्?
सप्तमी.
अर्थं?
आन्
द बेक्. आरोपितवान्. आरोपितवान् इत्युक्ते किम्?
गाट् आन्.
उत्तमम्.
एकं प्रश्नं, वन् क्वशन्. पृष्ठे इस् नीलर् रैट्? नाट् आन्.
दिस् आन्.
आन् द बेक्.
Okay, on the back. Prishtaha is not close to, is not near?
No, that's Samipam.
Okay, okay.
Uttamam. Adhya Shilam, Vadhya Shilam, Artham Kim?
The rock on which it kills.
Uttamam. Uttamam. Prati Gatavan Char. कर्कटकः दूरादेव इत्युक्ते किम्? दूरात् प्लस् एव दूरादेव. फ्रम् डिस्टेन्स्. शिलायां विभक्ति किम्?
सप्तमी.
शिलायां सप्तमी. लिङ्गं किम्?
स्त्रीलिङ्गं.
आम्, आकारान्त स्त्रीलिङ्गं. सप्तमी विभक्ति, एकवचनं. उत्तमम्. अस्तु, पतितानि अस्थीनि. अस्थीनि इत्युक्ते किम्?
बोन्.
दृष्ट्वा बकस्य दूरालोचनं दुरालोचनम्. अर्थं किम्?
बेड् थाट्. डिसैड्फुल् थाट्.
उत्तम. दुरालोचनं ज्ञातवान्, अतः सः स्वदन्तद्वयेन इत्युक्ते किम्?
इट्स् ओन् टु with its own teeth or two hooks.
With its own two teeth. Svadanta dvayena vibhakti kim?
Tritiya.
Tritiya vibhakti. Uttama. Bakasya vibhakti kim?
Shashti vibhakti.
Shashti, shashti vibhakti. Kantham dridham grishi tavan. Dridham itukte kim?
Dridham.
Strong. Strongly.
Strongly. Tightly. Vedanaya. Vedanaya vibhakti kim?
Tritiya.
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 Kimartam tritiya? Why is it?
With pain. It's how? Vedanaya?
With pain. Uttamam.
It's instrumental, isn't it?
Lingam kim?
Trilingam.
Trilingam.
Trilingam. Trilingam. Uttamam. Rodanam kurvan. Kurvan rupam?
Satranta rupam.
Satranta. Bahutam. Saha vanchakaha bakaha mrutaha.
Dead.
Uttamam. Okay. Prashna asti va?
एकं प्रश्नं
अस्तु वदतु महोदय यस् वाट् इस् द क्वश्चन् प्रश्नः किं एवरीवन् एल्स् प्लीस् कीप् आन् म्यूट् मोहन् महोदय युर् आन् म्यूट् ओके
वेदनया वेदनया is you know why is it tritiya vibhakti
okay who would like to explain kimattam vedanaya tritiya vibhakti
it is with tritiya vibhakti
okay vedanaya means with pain
with
and
pain,
vedana vedana is the
Rupa.
You can say the prathama vibhakti it's an adjective but Vedana becomes Vedanaya.
Okay, with pain. Avagatam, avagatam. Thank you. It means.
Okay. Uttama. Okay. Tadanantaram Vibhakti Vallari Patitavantaha. Okay. Tatra asti adaha stitani vakyani patata. Tatra vayam vayam asit asan asam asma. तत्र वयम् आस्म सः पाठं पठति सः पाठं पठितवान् ओके अहं वदामि तदनन्तरम् अर्थं किम् इति वदतु सः पाठं पठति इत्युक्ते किम्
हि रीड्स् द बुक्
उत्तमं सः पाठं पठितवान् सः पाठं पठिष्यति
हि
विल् रीड् द लेसन् ओर् द पुस्तकं न द लेसन् ओर् स्टडि ओके लेसन् सः पाठं पठतु
रिक्वेस्ट् आर् कमेण्ड् रीड्
नो यु रीड् द बुक्
यु न तत्र सः अस्ति भवान् न इट् डजन्ट् से भवान् दे सः सो हि
शुड् रीड् द बुक् हि शुड् रीड् द बुक्
read book
so Saha? He is that it is patatu is command right
yes. command or request
saha patham patitva griham gatavan
after reading the book he went home
pantarupam
patham patitum pustakam svikritavan
tumanarupam For reading the book, he took the book. For reading, he took the book.
Uttamam. Saha patam vilikhya griham gatavan.
What is the name of this form?
Lyabantar.
Ekam prasham, one question. So, patam patitum pustakam. So, to read the book, he took the, to read the book, he took it, right?
To read, to... To read,
Yeah.
The he took the book.
Yeah. He took the book.
To read the chapter. Okay.
Okay. Lesson or chapter.
Okay. Antimam saha patham pathan nidram krutavan.
Satrantrupa.
Reading
the book, he slept off.
Uttamam. Tanatam saha patham patati sma. It's not there, but we're adding that.
Yeah. But actually, for the same, this thing, you can have both Tvantarupam and Lepantarupam. For same verb or.
Saha patham patati sma artham vadatu tanantaram pashyamaha.
Past perfect. Past continuous.
Past continuous. Uttama. Saha patham patati sma artham kim? Angila Bhasha.
He was reading the book.
He was reading the book. Uttama. Astu. Patitva vilikya. They're not past perfect. Past perfect is the Gatavan or
correct,
Patitavan.
Correct. No, what is it? One is Svantarupam, the other is Yabantarupam?
Yes.
So, for example, Krenati. What is the Yabantarupam for Krenati?
You can say Vikriya.
Okay.
Yep.
Okay.
Uttamam.
Dhanyavadaha.
Okay. Agre Saramaha. Tatra Gruhapatam Asit. Purayatu. Riktistalani Purayatu iti Asit. Astu, kaha karoti? Who wants to say their homework? Who wants to 1 through 8?
If nobody is there, I'll do it.
Aham vadami bhagini, Chitra.
Astu, vadatu bhagini.
Kavihi shlokam likhati.
Okay, everyone kripaya mute madhye sthapayatu.
Poet writes the shlokam. Shlokam. Kavihi shlokam likhitavan. Kavihi shlokam lekhishyati. Kavihi shlokam likhatu. Kavihi shlokam likhitva gruham gatavan. Kavihi shlokam lekhitum pustakam svikrutavan. Kavihi shlokam vilikhya gruham gatavan. Kavihi shlokam likhan nidram krutavan. Kavihi shlokam likhatisma.
Samichinam bhagini, uttama. Okay. Kima prashna astiva? Does everyone understand the rupam of all those verbs?
Can we go back once again to the example? Just one last.
Yes.
Yeah, so here, sahapatam vilikhya, or vilikhya gruham gatvan. Vilikhya is likhitva same?
Yes.
Okay.
Yeah, it means the same as likhitva.
And patam, pathan is also after reading. Pathan and patitva is the same thing.
No. Patitva and... Okay. No. Patan means while reading.
Okay.
While reading, he slept.
Oh.
Like that.
Okay.
Yep. Yes, we haven't learned that before, but only the Vibhakti Vallari covers it.
Okay. Thank you.
Okay, uttamam. Okay, dvitiyam kaha karoti?
Aham likaromi. Balakaha likhnim krinati. Balakaha likhnim krinitavan. Balakaha krinishyati.
No.
Krinishyati.
न भगिनि क्रीणाति भविष्यत्काले किं भवति
क्रेष्यति
क्रेष्यति
क्रेष्यति सोरि क्रेष्यति बालकः लेखनीं क्रीणतु
क्रीणातु
क्रीणातु बालकः लेखनीं क्रीणित्वा
क्रीणित्वा किं भवति क्रीत्वा
क्रीत्वा बालकः बालकः लेखनीं क्रीत्वा गृहं गतवान् बालकः लेखनीं क्रीणितुं स्वीकृतवान्
क्रीणितुं न
क्रेतुं क्रेतुं I don't know.
Kretum. Not Kretum.
Kretum. Kretum, yeah. Kretum, Svikritavan. Balakaha. Kretwa. Kretwa. Gruham Gatavan. Lekhanim Kretwa. Gruham Gatavan.
Okay. ओके तत्र विक्रिय सो देर् दे वाण्ट् यु टु यूस् ल्यबन्तरूपं तदर्थं विक्रीणाति इति उपयोगं करोतु विक्रिय इति भवति
विक्रिय बालकः लेखनीं विक्रिय गृहं गतवान् बालकः लेखनीं विक्रीय क्रीणन् क्रीणन् निद्रां कृतवान्
अस्तु ओके
मेक् सेन्स्
मेक् सेन्स् चिन्ता मास्तु पीपल् डू वीर् थिङ्ग्स् एव्री डे सो चिन्ता मास्तु अस्तु Okay, do we need more practice on Lyabanta Rupam? Kim asti? Tvantam?
Yes.
Oh, itopi abhyasa avashyakam va? Okay. Astu, tarhi chet aham agrima kakshayam itopi aham अभ्यासः ददामि ओके ऐ विल् गिव् मोर् प्राक्टिस् आन् देट् नेक्स्ट् क्लास् ओके अस्तु अग्रे सरामः ओके सो वी हेव् डन् दिस् बिफोर् पूर्वमेव एतं कृतवन्तः पुनस्मरणम् इति केचन दिनानि वयं कृतवन्तः तस्मिन् दिने वयं पुनस्मरणम् एतं पत्रं कृतवन्तः सो वि डिड् दिस् पेपर् फोर् पुनस्मरण वन्स् सो वि केन् गो ओवर् इट् अन्लेस् एवरिवन् वान्ट्स् टु स्किप् इट्
No, let's go over it, please.
Okay. Astu. Tatrasti avarane dattanam shabdanam uchitani rupani rikte sthale likata. So, the words given in the avarane, in the parentheses, the given words, the correct words, fill it in the blank. So, fill in the blanks with the correct words. Okay? So, I will call on you one by one. तदनन्तरं वदतु ओके प्रथमम् अम्बिरा महोदय करोति वा रमीराव महोदय
रमेशः प्रतिदिनं देवान्
न एकवचनम्
अच्छा देवं
Janaka.
No, I'll do the next one. I'm just thinking. I'll do the next round. I'll do it whenever you ask.
Okay. Astu, Chinta Mastu. Okay. Sachin Maurya, Astiva.
I was not present last time, but I'll try. Rameshah, Pratidinah, Devah, Janakah, Agrajah, Acharyah, नमस्करोति
अस्तु न ओके लेमि गो अबौट् उदाहरणम् ओके अस्तु उदाहरणं पश्यतु तत्र अस्ति सः प्रातः पत्रिका सो पत्रिका इस् इन् द पेरेन्थिसिस् पत्रिका आवरणे अस्ति पत्रिका द्वितीयाविभक्ते पत्रिकाम् इति भवति द्वितीयविभक्ति सो द्वितीयविभक्ति इस् आब्जेक्टिव् दि पेपर् पत्रिका पत्रिकां कविता कवितां दि पोयट्रि तदनन्तरं ग्रन्थः ग्रन्थं दि बुक् च पठति हि रीड्स् सो हि इन् द morning he reads the newspaper poetry and the book is the meaning of that sentence
all of them are dvitiya vibhakti
patrikam kavitam grantham they're all dvitiya vibhakti okay so
will it will be devam janakam agrajam and acharyam
bahu uttamam punah सम्पूर्णं वाक्यं वदतु किन् यु रीड् द होल् सेण्टेन्स्
रमेशः प्रतिदिनं देवं जनकम् अग्रजम् आचार्यं च नमस्करोति
बहु उत्तमम् अर्थं कृपया वदति वा
एव्रिडे रमेश salutes namaskaroti salutes to no praise to God as Janak father agrajas
elder brother acharya is teacher
uta
I can do the second one
ओके करोतु महोदय
सीता ग्रन्थं सुधाखण्डं स्यूतं दण्डं च नयति सीता ब्रिङ्क्स् दि बुक् शुगर् केन् पीस् अण्ड् बेग्
सुधाखण्ड इत्युक्ते किं
जागरि
चाक्
चाक्लेट्
chalk piece bag and dandam means one stick can bring
here
he brings
heel ruler
nayati
dhanyawad
kini
nayati nayati kitre kim
carries
ओके प्रतिमा भगिनी एवरीवन प्लीज कीप ऑन म्यूट
सेवकः आम्रं पनसं नारिकेलं च सिञ्चति सो द सर्वेंट गिव्स वाटर टू द मैंगो ट्री दिस जैकफ्रूट ट्री and coconut tree.
Uttamam, dhanyavadha bhagini. Okay, Shanti bhagini.
Ramah Dasharatham Sumantram Vasishtham cha namaskritavan. Rama salutes Dasharatha, Sumantra and Vasishtha.
Dhanyavad.
Saluted, yeah?
Saluted, yes. Bhutakala.
Saluted, yeah.
Okay, Sushma Bhagini?
Yes. Sajjanaha dharmam paropakaram sadacharam cha ichyati. Good people like dharmam, duty, paropakaram is, how do I say that in English?
Helping others.
Okay. Yeah, helping others. And sadacharam, again, good deeds. Good people like these.
Uttam. Dhanyavada Bhagini. Chitra Bhagini.
Bhagini apanataha malam patrikam padaraksham sthalikam cha anitavati. From the shop, sister will bring a garland, a book, shoes, plates.
Astu. Ekavachanam eva. Plate.
Plate.
Dhanyavada.
Padaraksha ekavachanam, that didn't.
Okay. Astu. Indra Bhagini?
Balakaha lekhanim ankanim karim susim cha kritavan. Child bought pencil, kadambari, a book and a list.
Suchi mitivte kim?
Suchi is a list, isn't it?
Needle.
Oh, sorry, needle. Yeah, sorry. Forgot.
Uttam. Dhanyavada Bhagini. Chinta mastu. Mohan Modya?
Mata syutam yutakam Veshtim Shatakam cha
Shatikam
Shatikam cha Shalita Vati. Mata Syutam is bag. No, Jala Syutam is a tumbler. I mean, Syutam is
Syutam is bag.
Yeah, Mata Syutam Yutakam. Yutakam is clothes. Right?
Shirt.
Yeah, shirt. Veshtim is like the Tamil Veshti or what is that?
Yeah, the clothing.
Veshti. Okay, okay. Veshtim, Shatikam. Shatikam is sari. Shalitavati. Shalitavati is wearing?
Cleaned.
Washing.
Oh,
Samichinam, Maudhya. Okay, Venkat Maudhya?
One question, Maudhya. Is the Kshalitavati and Prakshalitavati the same?
Yeah, they mean the same thing.
Okay.
Yeah, they mean the same thing pretty much.
All right. Thank you.
Aham kolahalam halaham harcham alasyam
च न इच्छामि I don't like discuss on kola hai
confusion mili
yes
kola
kola
Noise.
Noise.
I don't like noise. Discussion.
Quarrel.
And late. Alasya means late.
No,
alasya
laziness.
Laziness.
Hello?
Laziness.
Laziness.
Charcha in this context would mean gossip, right?
Yep. It means gossip here.
Gossip. What is kalaha meaning?
Kalaha.
Argument.
Disruption. Disruption.
Quarrel.
Disruption.
Quarrel.
Fights.
Quarrel.
Quarrels.
Or fights.
Argument.
Yep.
Argument.
Exactly. Uttama. Okay. Agre saramaha. Okay, we'll just try to complete this page, the website page. And then we will end. Okay. Dashamam Namasimodaya. Let's see if you can talk. वक्तुं शक्नोति वा नरसिंह महोदय ओके अस्तु अस्तु पश्यामः महोदय कक्षायाः अनन्तरम् ओके एमिरा महोदय
अहं गणेशं दुर्गाः सरस्वतीं लक्ष्मीं च पूजयामि ऐ वर्षिप् Ganesha, Durga, Saraswati and Lakshmi.
Uttamam. Sachin Maudya? Kinchit Kathinam Asti.
Govindam, Janam, Apanam, Deepam, Vruksham cha Pashyati. So Govind is watching people, shops. Deepam is... Is it...
Okay. Ekanimesham.
Vruksham is trees.
Okay. Ekanimesham. So, smaratu, janaha bahuvachanam pullingam asti, tadatam janan, janan iti bhavati.
Okay.
Janan, apanaha kim bhavati.
Apanan.
Apanan.
Deepan.
पुनः सम्पूर्णं वाक्यं वदतु केन् यु रीड् द होल् सेण्टेन्स्
गोविन्दः जनान् आपणान् दीपान् वृक्षान् च पश्यति
बहु उत्तमम् अर्थं वदतु कृपया
गोविन्द इस् वाचिङ्ग् और् सीयिङ्ग् पीपल् शाप् दीपा इस् वृक्षान् इस् ट्रीस् दीपा इस्
लैम्प्
योर् लैम्प् Okay,
lights.
Ekam prashnam, we are still in the dvitiya, right? All these things are dvitiya. Janan, apanan, deepan, vrikshan, all these are dvitiya vibhakti and plural, right?
The whole chapter is only for dvitiya vibhakti. There is one chapter for every vibhakti. This is the first chapter for dvitiya vibhakti.
Thank you.
Bhagini. Bhagini. This yes. Vrikshan is na or na?
Vrikshan is...
It is na.
The,
I think it is na, right?
The first
Only Vrikshan is na. It is not Shasva, it is na.
Okay. Pratima Bhagini?
Yes.
Vrukshan is no na because there are two ras. Vru, in that also ra is there, and sha is also harsh word. So when two harsh words are there, then ana is not put, na is put here. So it is Vrukshan.
Dwadasha, Dwadasha. Dwadashanam karatu, bhagini, kapaya. Next sentence.
Did you follow it?
Yes.
Thank you.
Oh. Bhagini, can you do number 12? Vayam?
Yeah. Vayam Ganeshotsava avasare. Bhaginihi.
Bhaginihi.
Bhaginihi. Janinihi. Mahilaha. उद्योगिनी च गृहं प्रति आह्वयाम
उत्तमम् अस्तु ओके स्मरतु सो रिमेम्बर दैट भगिन्यः इज भगिनी बिकम्स भगिन्यः इज ईकारान्त स्त्रीलिङ्गं सो इन बहुवचनम् एकं भगिनीहि एंड लाइक भगिनी सेड Jananihi. And then for Akaranta Strilingam, it stays the same. One is Bahuvachanam. So Mahilaha stays Mahilaha. And then Udyoginyaha becomes Udyoginihi. Because it's Ikaranta Strilingam.
So, Ekam Prashnam. So, Bhaginyaha is plural, right?
Yes, yeah. Bahuvachanam.
Bahuvachanam, Vayam Ganeshotsavasare
Utsavavasare
Utsavasare Bhaginyah Jananyah. No, that's not right.
That's
no,
not
that right. Is Pradhama Vibhakti. It should be Dvitiya Vibhakti. What they have given is Prathama Vibhakti, we have to convert to Dvitiya
Vibhakti. Dvitiya Vibhakti Bahuvachanam. See, the ladies, the people. Avagachati va Mohdiya?
Avagatam. I just have to practice with Bhagini. Thank you.
Okay.
What does Udyoginiha become? Udyoginihi.
Yes, Udyoginihi. Okay. Okay. Okay, so for sake of okay, Pratima Bhagini Artham Vadativa.
Yeah. On the occasion of Ganesh festival, sisters, mothers, ladies and entrepreneurs.
Colleagues, is it?
We call them home. So we call sisters, mothers, ladies, then industrialists to our home.
Dhanyavada Bhagini. Okay, Shanti Bhagini.
Vayuhu Purushan Mahilaha वृक्षान् पुरुष वृक्षान् वनानि
वनानि वनानि
वनानि गुल्माः ऐ डोंट नो व्हाट दैट इज गुल्मान्
उत्तमम्
स्पृशति व्हाट इज गुल्मान्
बुश
बुश बुश भगिनी Artham adati va, Bhagini?
I think Vayu is wind, breeze, air. Sprishati, is, does it blow? Is it blowing over?
Touches.
Touches.
Okay. So the wind touches men, ladies, trees, forests, and the bushes.
Bahu uttama. Okay. Sukshma Bhagini?
Yes. Gopala kavayitryah.
Bhagini, can you scroll up, please?
Oh, Kanatam.
Gopala kavayitri.
Kavayitrihi.
Ruhini, is that right?
Yeah.
Ruhini, karma karihi ka mitra yati. Gopal invites poetesses, homemakers, and karma karika officials. Gopal invites these. Is that correct?
Right. Okay. Antimam, Chitra Bhagini.
अहम् अङ्कनीः लेखनीः कर्तरीः च क्रीतवान् ऐ बाट् पेन्सिल्स् पेन्स् एण्ड् सिज़र्स्.
बहु